Book 2
41
41
Sự định hướng
Disha gyan
Trạm hướng dẫn giao thông cho khách du lịch ở đâu?
पर्यटन कार्यालय कहाँ है?
Bạn có bản đồ thành phố cho tôi không?
क्या आपके पास मेरे लिए शहर का नक्शा है?
Ở đây có thể đặt trước phòng khách sạn được không?
क्या यहाँ होटल के कमरे का बंदोबस्त हो सकता है?
Khu phố cổ ở đâu?
पुराना शहर कहाँ है?
Nhà thờ lớn ở đâu?
चर्च कहाँ है?
Viện bảo tàng ở đâu?
संग्रहालय कहाँ है?
Ở đâu có thể mua tem thư?
डाक टिकट कहाँ से खरीद सकते हैं?
Ở đâu có thể mua hoa?
फूल कहाँ से खरीद सकते हैं?
Ở đâu có thể mua vé tàu xe?
टिकट कहाँ से खरीद सकते हैं?
Bến cảng ở đâu?
पोर्ट कहाँ है?
Chợ ở đâu?
बाजार कहाँ है?
Lâu đài ở đâu?
महल कहाँ है?
Khi nào phần hướng dẫn bắt đầu?
समूह दौरा कब शुरू होता है?
Khi nào phần hướng dẫn kết thúc?
समूह दौरा कब खत्म होता है?
Phần hướng dẫn kéo dài bao lâu?
समूह दौरा कितने समय तक चलता है?
Tôi muốn một người hướng dẫn nói tiếng Đức.
मुझे एक ऐसा गाइड चाहिए जो जर्मन बोल सकता हो.
मुझे एक ऐसा गाइड चाहिए जो जर्मन बोल सकता हो.
Tôi muốn một người hướng dẫn nói tiếng Ý.
मुझे एक ऐसा गाइड चाहिए जो इटालियन बोल सकता हो.
मुझे एक ऐसा गाइड चाहिए जो इटालियन बोल सकता हो.
Tôi muốn một người hướng dẫn nói tiếng Pháp.
मुझे एक ऐसा गाइड चाहिए जो फ्रेंच बोल सकता हो.
मुझे एक ऐसा गाइड चाहिए जो फ्रेंच बोल सकता हो.